ಜ್ಯೋತಿಗುಂ ಹವಾಮಹೇ ಕವಿಂ ಕವೀನಾಮುಪಮಶ್ರವಸ್ತಮಂ ಜ್ಯೇಷ್ಠರಾಜಂ ಬ್ರಹ್ಮಣಾ ಬ್ರಹ್ಮಣಸ್ಪತ ಆನ ಶೃಣ್ವನ್ನೋತಿಭಿಃ ಸೇದಸಾದನಂ ಪ್ರಣೋ ದೇವೀ ಸರಸ್ವತೀ ವಾಚೇಭಿರ್ವಾಜಿನೀವತಿ ಧೀನಾಮವಿತ್ರಯವತೋ ಗಣೇಶಾಯ ನಮಃ ಸರಸ್ವತ್ಯೈ ನಮಃ ಶ್ರೀಗುರುಭ್ಯೋ ನಮಃ ಹರಿ ಓಂ ಓಂ ನಮೋ ಭಗವತೇ ರುದ್ರಾಯ ಓಂ ನಮಸ್ತೆ ರುದ್ರಮನ್ಯವ ಉತೋತ ಇಷವೇ ನಮಃ ನಮಸ್ತೆ ಅಸ್ತು ಧನ್ವನೇ ಬಾಹುಭ್ಯಾಮುತತೇ ನಮಃ ಯಾತ ಇಷು ಶಿವತಮಾ ಶಿವಂ ಬಭೂವತೆ ಧನುಃ ಶಿವಾಶರವ್ಯಾಯಾತವತಯಾನೋ ರುದ್ರಮೃಡಯಾ ಯಾತೇ ರುದ್ರ ಶಿವಾತನೋರಘೋರಾ ಪಾಪಕಾಶಿನೀ ತಯಾನಸ್ತನು ವಾಶಂತಮಯಾ ಗಿರಿಶಂತಾಭಿಜಾಕಶೀ ಯಾಮಿಷಂ ಗಿರಿಶಂ ತಹಸ್ತೇಭಿಭರ್ಷಸ್ತವೇ ಶಿವಾಂ ಗಿರಿತ್ರತಾಂ ಕುರು ಮಾಹಿ ಗುಂಸಿ ಪುರುಷಂ ಜಗತ್ ಶಿವೇನ ವಚಸಾ ತ್ವಾ ಗಿರಿಶಾಚ್ಛಾವದಾಮಸಿ ಯಥಾ ನಃ ಸರ್ವಮಿಜ್ಜಗದ ಯಕ್ಷ್ಮಗುಂ ಸುಮನಾ ಅಸತ್ ಅದ್ಯ ವೋಚ ದಧಿ ವಕ್ತಾ ಪ್ರಥಮೋ ದೈವ್ಯೋಭಿಷಕ್ ಅಹೇಗಶ್ಚ ಸರ್ವಾಂಜಂ ಭಯಂ ಸರ್ವಾಚ್ಚ ಯಾತು ಧಾನ್ಯಃ ಅಸವ್ಯತ್ತಾಮ್ರೋ ಅರುಣ ಉತ ಬಭ್ರಃ ಸುಮಂಗಳಃ ಯೇ ಮಾಗುಂ ರುದ್ರಾ ಅಭಿತೋ ದಿಕ್ಷಶ್ರಿತಾ ಸಹಸ್ರಶೋ ವೈಶಾಗುಂ ಹೇಡ ಈಮಹೇ ಅಸವ್ಯೋ ವಸರ್ಪತಿ ನೀಲಗ್ರೀವೋ ವಿರೋಹಿತಃ ಉದೈನಂ ಗೋಪಾ ಅದೃಶನ್ನದೃಶನ್ನುದಹಾರ್ಯಃ ಉದೈನಂ ವಿಶ್ವಾ ಭೂತಾನಿ ಸದೃಷ್ಟೋ ಮೃಡಯಾತಿನಃ ನಮೋ ಅಸ್ತು ನೀಲಗ್ರೀವಾಯ ಸಹಸ್ರಾಕ್ಷಾಯ ಮೀಢುಷೇ ಅಧೋಯೇ ಅಸ್ಯ ಸತ್ವಾನೋಹಂ ದೇವ್ಯೋ ಕರನ್ನಮಃ ಪ್ರಮುಂಚದನ್ವನತ್ವಮುಭಯೋರಾತ್ಮಿಯೋರ್ಜಾಂ ಯಾಶ್ಚ ದೇಹಸ್ತ ಇಷವ ಪರಾತ ಭಗವೋ ಭವ ಅವತತ್ಯ ಧನುಸ್ವಗುಂ ಸಹಸ್ರಾಕ್ಷಶತೇಷು ಧೇ ನಿಷೇರ್ಯ ಶಲ್ಯಾನಾಮುಖ ಶಿವೋ ನ ಸುಮನಾ ಭವ ವಿಜ್ಯಂ ಧನು ಕಪರ್ದಿನೋ ವಿಶಲ್ಯೋ ಬಾಣವಾಗುಂ ಉತ ಅನೇಶನ್ನಸ್ಯೇಷವ ಆಭುರಸ್ಯ ನಿಶಂಗತಿಃ ಯಾತೇಹೇತಿರ್ಮೀಢುಷ್ಟ ಮಹಸ್ತೆ ಬಭೂವತೆ ಧನುಃ ತಯಾಸ್ಮಾನ್ ವಿಶ್ವತಸ್ವಮಯಕ್ಷ್ಮಯಾ ಪರಿಭುಜ ನಮಸ್ತೆ ಅಸ್ವಾಯುಧಾಯ ನಾತತಾಯ ದೃಷ್ಟವೇ ಉಭಾಭ್ಯಾಮುತ ತೇ ನಮೋ ಬಾಹುಭ್ಯಾಂ ತವ ಧನ್ವನೆ ಪರಿತೇ ಧನ್ವನೋ ಹೇತಿರಸ್ಮಾನ್ ವೃಣಕ್ತು ವಿಶ್ವತಃ ಅಧೋಯ ಇಷುಧಿತ್ತ ವಾರೇ ಅಸ್ಮನ್ನಿಧೇಹಿತಂ ನಮಸ್ತೆ ಅಸ್ತು ಭಗವನ್ ವಿಶ್ವೇಶ್ವರಾಯ ಮಹಾದೇವಾಯ ತ್ರಯಂಬಕಾಯ ತ್ರಿಪುರಾಂತಕಾಯ ತ್ರಿಕಾಗ್ನಿಕಾರಾಯ ಕಾಲಾಗ್ನಿರುದ್ರಾಯ ನೀಲಕಂಠಾಯ ಮೃ ప్రత్యం జయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః. నమో హిరణ్యబాహవే సేనాన్యే దిశాం చ పతయే. నమో నమో వృక్షేభ్యో హరికేశేభ్యః పశూనాం పతయే. నమో నమః తస్మింజరాయ త్రిషీమతే పథీనాం పతయే. నమో నమో బభ్లుషాయ వివ్యాధినేనానాం పతయే. నమో నమో హరికేశాయోపవీతినే పుష్టానాం పతయే. నమో నమో భవత్యహేత్యై జగతాం పతయే. నమో నమో రుద్రాయ తతావినేక్షేత్రాణాం పతయే. నమో నమః సూతాయ హంత్యాయ వనానాం పతయే. నమో నమో ద్రోహితాయ స్థపతయే వృక్షాణాం పతయే. నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే. నమో నమో భువంతయే వారివ కృతాయౌషధీనాం పతయే. నమో నమ ఉచ్చైర్ఘోషాయ క్రందయతే పత్తీనాం పతయే. నమో నమ కృష్ణవేతాయ ధావతే సత్వనాం పతయే నమః. నమస్సహమానాయ నివ్యాధిన ఆవ్యాధినీనాం పతయే. నమో నమః కతుభాయ నిషంగిణే స్తేనానాం పతయే. నమో నమో నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే. నమో నమో వంచతే పరివంచతే సాయూనాం పతయే. నమో నమో నిజేరవే పరిచరాయారణ్యానాం పతయే. నమో నమ శ్రీకావిభ్యో జిగాగుంసద్భ్యోష్ణతాం పతయే. నమో నమో శ్రీమద్భ్యో రక్తం జరద్భ్య ప్రగ్రంథానాం పతయే. నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే. నమో నమ ఇషుమద్భ్యో దన్వాభ్యశ్చ వో నమో నమ ఆతన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చద్భ్యో విసృజభ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమ తిష్టద్భ్యో ధావభ్యశ్చ వో నమో నమ సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః. నమ ఆవ్యాధినేభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రిగుంహదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపతిభ్యశ్చ వో నమో నమో వ్రాతేభ్యో వ్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః తుల్లకేభ్యశ్చ వో నమో నమో రథిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః. శత్రుభ్యసంగ్రహీతృభ్యశ్చ వో నమో నమ సక్షభ్యోరథకారేభ్యశ్చ వో నమో నమ కులాలేభ్యః కర్మారే నమో నమః పుంజిస్తేభ్యో నిషాదేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపదిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః సర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శితికంఠాయ చ నమః కపర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమో గిరిశాయ చ శిపిభిష్టాయ చ నమో మేడుష్టమాయ చేషుమతే చ నమో ్రస్వాయ చ వామనాయ చ నమో బృహతే చ వక్షేయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవే చాచిరాయ చ నమచ్చేగ్ర్యాయ చ శేభ్యాయ చ నమః ఊర్ణ్యాయ చ వస్వన్యాయ చ నమః శ్రోతస్యాయ చ ద్వీప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ పగల్భాయ చ నమో జగన్యాయ చ బుద్ధ్నియాయ చ నమః సోభ్యాయ చ ప్రతిసర్గ్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్గ్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేనాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో వర్మినే చ వరోధినే చ నమో బిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుంధుభ్యాయ చ హనన్యాయ చ నమో ధృష్ణవే చ ప్రమృషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగినే చేషుధిమతే చ నమః తీష్ణేశవే చాయుధినే చ నమః స్వాయుధాయ చ సుధన్వనే చ నమః శ్రుత్యాయ చ పత్యాయ చ నమః కాట్యాయ చ నీభ్యాయ చ నమః సూత్యాయ చ సరస్యాయ చ నమో నాగ్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వశ్యాయ చ వర్ష్యాయ చ నమో మేఘ్యాయ చ విద్యుత్యాయ చ నమః ఈద్రియాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మియాయ చ నమో వాస్తవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చ రుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రేవధాయ చ దూరేవధాయ చ నమో హంద్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయో భవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమః తీర్థ్యాయ చ కూర్జాయ చ నమః పాద్యాయ చ పాద్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతాద్యాయ చ లాద్యాయ చ నమః चष्प्याय च भेम्याय च नमः सिकत्याय च प्रभाक्याय च नमः इदिन्याय च प्रपत्याय च नमः केगुंशिलाय च शयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो पगुरमाणाय च विघ्नते च नमः आकिदते च रक्षिदते च नमो वक्किरिकेभ्यो देवानागम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्मत्केभ्यो नम आमिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धस्वस्पदे दरिद्रन्नीललोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् मा भेमारोमो येषाम् किञ्च नाममत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तयानो मृडजीवसे इमागुम् रुद्राय तमसे कपर्दिने शयद्वीराय प्रबलामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रोतनो मयस्कृते शयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुदमानो अर्भकम् मान उक्षन्दमुदमान उक्षितम् मानो वधे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतनये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामिदो वधेर्हविष्मन्तो नमसा विधेमते आरात्रे गोग्नमुद पूरुषग्ने क्षयद्वीराजसु नमस्मेते अस्तु रक्षाजनो अधि च देव ब्रूयदा जनः शर्म यच्च द्विवरुहाः स्तुहि श्रुतम् गर्तदम् युवानम् मृगन्न भीममुपहत्रुमुग्रम् मृडा चरिद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य हेदुर्वृणस्तु परित्वेषस्य दुर्मदिरघायोः अवस्तिरामगवद्यस्तनुष्वमीडस्तोकायतनयाय मृडया मीडुश्चमशिवतमशिवो नः सुमना भवा परमे वृक्ष आयुधम् निधाय कृत्यम् वसा नमाचर पिनाकम् बिभ्रदागही विगिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रता बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुं सहस्रयो जने वदन्वानि जन्मसे अस्मिन् महत्यर्णवेन्दरिक्षे भवाधे नीलग्रीवाशितिगण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयोभिषिगासकपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पथाम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थाणि प्रजरन्ति शृगावन्तो निषङ्गिणः यगेतावन्तश्च भूयागुन्तश्च दिशो रुद्रावितस्थिरे तेषागुं सहस्रयो जने वधन्वानि जन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि ये शावन्नम् वातो वरुषमिषभस्तेभ्यो दश प्राजे दश दक्षिणा दश कदेचेर्दशोदेचेर्दशोर्द्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् दिष्मो यच्च नो द्वेष्टिदम् भोजम् दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनात् मृत्योर्मुक्षेयमामृतात् यो रुद्रो अग्नभ्यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरधिरुद्रो मा विशान्तकः तेनान्येनाप्यायत्स्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टु हि यस्विषुस्तु धन्वायो विश्वस्य क्षयदि भेषजस्य यक्ष्वा महेशौ मनसाय रुद्रम् नमो भिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः विष्णो सजोषसे मा वर्धन्तु वाङ्गिरः द्युम्नेर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तम् च माधीतम् च मे वाच्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मवोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्यश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्रिशिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमानं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च मरुद्धं च मरुद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे लोकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे ग्रन्था च मे भर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संवृच्च मे ज्ञात्रं च मे सोश्च मे प्रदोश्च मे सेरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊर्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जयेत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे शिखराश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शीतं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्णपत्यं च मे कृष्णपत्यं च मे ग्राम्याश्च मे पशवारण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्धश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे విష్ణుశ్చ మ ఇంద్రశ్చ మేష్వినో చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మేంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంసుశ్చ మే రశ్మిశ్చ మేధ్వాభ్యశ్చ మే ధృపతిశ్చ మ ఉపాగుంసుశ్చ మేంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే ప్రతి ప్రస్థానశ్చ మే శుక్రశ్చ మే మంతే చ మ ఆగ్రహణశ్చ మే వైశ్వదేవశ్చ మే ధ్రువశ్చ మే వైశ్వానరశ్చ మరుతుగ్రహాశ్చ మేతి గ్రాహ్యాశ్చ మ ఐంద్రాగ్నశ్చ మే వైశ్వదేవశ్చ మే మరుత్వతీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్టశ్చ మే పాత్రీవతశ్చ మే హారియోజనశ్చ మే ఇద్మశ్చ మే వరిహిశ్చ మే భేదిశ్చ మే ధిష్ణియాశ్చ మే శుచశ్చ మే చభసాశ్చ మే గ్రావాణశ్చ మే స్వరవశ్చ మ ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణకలశశ్చ మే వాయవ్యాని చ మే పూతవృక్ష మ ఆధవణీయశ్చ మ ఆగ్నేయఘ్రం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే అజతాశ్చ మే వభృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరేరంగులయో దిశశ్చ మే యజ్ఞేన కల్పం తామ్రక్ష మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రదంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే ద్విత్యవాక్ష మే ద్విత్యోహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాక్ష మే తుర్యోహే చ మే పష్టవాక్ష మే పష్టౌహే చ మ ఉక్ష్రాచ మే వషాచ మ ఋషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మ ఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాగుశ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకాచ మే త్రిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏక విగుంశతిశ్చ మే త్రయో విగుంశతిశ్చ మే పంచ విగుంశతిశ్చ మే సప్త విగుంశతిశ్చ మే నవ విగుంశతిశ్చ మ ఏక త్రిగుంశచ్చ మే त्रयस्त्रिगुंशच्च मे चतस्रश्च मे षौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे स्थाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतश्चत्वारिगुंशच्च मे ष्टाचत्वारिगुंशच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च यश्नियश्चान्त्यायनश्च त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानि शगुंसि षद्विश्वे देवासूक्तवाच पृथिवीमातर्मा माहिगुंसे मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् मा देव अवन्तु शोभाय पितरोनुमदन्तु ॐ शान्ति शान्ति शान्तिः ॐ तच्छयोरावृणीमहे गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स्वभूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छभव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अतो ज्यायागुश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वौ दैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् साशनादशने अभि तस्मात् विराजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीराज्यम् ग्रीष्म इत्मः शरद्रविः सप्तास्यासन् परिधयः त्रिसप्त समिधकृताः देवायद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संवृतम् वृषराज्यम् पशोगस्तागश्चग्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रुचस्वामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्व अजायन्त एकेजो भयादतः गावोह जग्निरेतस्मात् तस्मात् जाता अजावयः यत्पुरुषं व्यददो करिदा व्यकल्पयन् मुखं किमस्य कौ बाहो कावूरोपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यकृतः ऊरो तदस्य यद्वैश्यः पद्व्यागुं शोत्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवधन्यदास्ते दाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशस्ततस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिस्तरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदद्ब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे ह्रीश्च ते लक्ष्मीश्च पत्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्चयोरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् भवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् हुवेम प्रातर्जितम् भगमुग्रगुम् हुवेम वयम् पुत्रमदितेभ्यो विधत्ता आद्रच्छिद्यम् मन्यमानस्तुरश्चिद्राजा छिद्यम् भगम् भक्षेत्याह भग प्रणेतर्भग सत्यराधो भगे माम् धियमुदवदन्नः भग प्रणो जनयगोभिरश्वैर्भग प्रणभिर्नृवन्दस्याम उदेदानीम् भगवन्दस्यामोत प्रपित्व उत मध्ये अह्ना उदोदिता मघवन् सूर्यस्य वयम् देवानागम् सुमतो स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्दस्याम तम् त्वा भगः सर्व इज्जो हवेमि धनो भग पुरयेता भवेह समध्वरा योषसो न मन्ददधिक्रावेव शुचये पदाय अर्वाचीनम् वसुविदम् भगन्नोरथमिवाश्वा वाजिन आवहन्तु अश्वावतेर्गोमतेर्न उषासो वीरवति सदमुच्छन्तु भद्राः घृतम् दुहाना विश्वतप्रवीणा यूयम् पाद स्वस्तिभिस्तदानः यो माग्ने भागिनगुम् सन्तमधा भागम् चिकीरुषते अभागमग्ने तम् गुरु मामग्ने भागिनम् गुरु ॐ शान्ति शान्ति शान्तिः ॐ हिरण्यवर्णाम् हरिणीम् सुवर्णरजतस्रजाम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो मावह ताम् मावह जातवेदो लक्ष्मीमनपगामिनी यस्याम् हिरण्यम् विन्देयम् गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनाद प्रमोदिनीम् श्रियम् देवीमुपक्वये श्रीर्मा देवी जुषताम् काम् सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियम् लोके देवजुष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाच्च वाक्य अलक्ष्मीः उपैतु माम् देवसगः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसमृद्धिञ्च सर्वानिर्नुत मे गृहात् गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ईश्वरेगुम् सर्वभूतानाम् तामिहोपह्वये श्रियम् मनसः काममाकूतिम् वाचः सत्यमशीमहे पशूनां रूपमन्नस्य महिश्री श्रयतां यजः कर्दमेन प्रजाभूता मयि सम्भव कर्दमाम् श्रियं वासय मे कुले मातरं पद्ममालिनी आपसृजन्तु स्निग्धानि जिक्लेदवस मे गृहे निज देवीं मातरं श्रियं वासय मे कुले आर्द्रां पुष्करणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो मावः आर्द्रां यक्करणीं यष्टिं सुवर्णां खेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो मावः तां मावः जातवेदो लक्ष्मीमनपगामिनी यस्यां हिरण्यं प्रभूतं गावो दास्योश्वा विन्देयं पुरुषानहं यशुचि प्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रियः पञ्चदशर्चं जप् श्रीकामः सततं जपेत् पद्मानने पद्म ऊरु पद्माक्षी पद्मसम्भवे त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् अश्वदायि गोदायि धनदायि महाधने धनं मे जुषतां देवीं सर्वकामाश्च देहि मे पुत्रपौत्रधनं धान्यं हस्त्यश्वादिगवेरथम् प्रजानां भवसि माता आयुष्मन्दं करोतु माम् धनमग्निर्धनं वायुर्धनं सूर्योधनं वसुः धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते वैनदे यसोमं पिब सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न जमात्सर्यं न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् सदा वर्षन्तु देवि भावरे दिवो अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विषो जहि पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधस्त्वा यासा पद्मादनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिघनघजितैः स्नापिता हेमकुम्भैः नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपां कुलां श्रीमन्मन्दकटाक्षलब्धविभव ब्रह्मेन्द्रगङ्गाधरां तां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मी सरस्वती श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थां बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमम्बां जगदीश्वरीं त्वाम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवी नारायणि नमोऽस्तु ते महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात्। अहम् रुद्रेभिर्वसुभिश्चराम्यहमादित्ये ऋत विश्वदेवै अहम् मित्रावरुणो भाभिभर्म्यहमिन्द्राग्नि अहमश्विनो भा अहम् सोमावाहनसम् बिभर्म्यहम् द्रष्टारमुदभूषणम् भगम् अहम् ददामि द्रवीणम् हविष्माते सुप्राव्ये यजामानाय सुन्वते अहम् राष्ट्रे सङ्गमानि वसूनाम् चिकेदुषे प्रथमा यज्ञियानाम् तामा देवाव्याददु पुरुत्रा भूरिस्थाक्राम् भूर्या वेषयन्ते मया सो अन्नामक्तियो विपश्यादि यः प्राणीतियै शृणोत्युक्तम् अमन्तभोमान्त उपक्षयन्ति श्रुधि श्रोतश्रद्धिवम् ते वदामि अहमेव स्वयमिदम् वदामि जुष्टम् देवेभिरुदमानुषेभिः यम् कामगेतम् तामुग्रम् कृणोमिदम् ब्रह्माणम् तमृषिन्तम् सुमेधाम् अहम् रुद्राय धनुरातानोमि ब्रह्मद्विशेषरा वेहन्तवाऊ अहम् जनाय समदम् कृणोम्यहम् द्यावा पृथिवी आवेश अहम् सूवे पितरामस्य मूर्धन्ममयोनीरप्स्वा अन्तःसामुद्रे ततो वितिष्ठे भुवनानुविश्वोतामून्द्याम् वस्मणोपस्पृशामि अहमेव वाता इव प्रवाम्यारभामाना भुवानानि विश्वा परो दिवापर येना पृथिव्यैतावते मघिना सम्बभूव ॐ शान्ति शान्ति शान्तिः राजाधिराजाय प्रसह्यसाहिने नमो वयम् वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः ॐ तद्ब्रह्मा ॐ तद्वायुः ॐ तदात्मा ॐ तत्सत्यम् ॐ तत्सर्वम् ॐ तत्पुरोर्नमः अन्तश्चरति भूतेषु गुहायाम् विश्वमूर्तिषु त्वम् यज्ञस्त्वम् वषट्कारस्त्वमिन्द्रस्त्वम् रुद्रस्त्वम् विष्णुस्त्वम् ब्रह्मत्वम् प्रजापतिः त्वम् तदाप आपो ज्योतिरसोऽमृतम् ब्रह्म भूर्भुवत्सुवरो स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहिषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्तिः। शान्ति शान्ति शान्ति।